ब्रह्मरन्ध्रसरसीरुगादरे नित्यलग्नमवदातमद्भुतम् कुण्डलीविवरकाण्डमण्डितम् द्वादशार्णसरसीरुहं भजे तस्य कन्दलितकर्णिकापुटे क्लृप्तरेखमकथाधिरेखया कोणलक्षितः लक्षमण्डली भावलक्ष्यमवलालयं भजे तत्पुटे पटुतटित्कटारिम स्पर्धमानमणिपाटलप्रभम् चिन्तयामि हृदि चिन्मयं वपुः नादबिन्दुमणिपीठमण्डलम् ऊर्ध्वमस्य हुतभुक्षिखात्रयम् तद्विलासमरिबृंहणास्पदम् विश्वघस्मरमहोच्छितोत्कटम् व्यामृशामि युगमादिहंसयोः तत्र नाथचरणारविन्दयोः कुङ्कुमासवझरीमरन्दयोः द्वन्द्वबिन्दुमकरन्दशीतलम् मानसं स्मरति मङ्गलास्पदम् पादुकापञ्चकस्तोत्रम् पञ्चवक्राद्विनिर्गतम् षडाम्नाय फलप्राप्तम् प्रपञ्चे चापि दुर्लभम्।